स्थिति विभ्रष्ट कर्म यत् कुरुते शुभम् प्रज्ञापराधम् तं विद्यात् सर्वदोष प्रकोपणम् विभ्रष्ट कर्म यत् कुरुते शुभम् प्रज्ञापराधम् तं विद्यात् सर्वदोष प्रकोपम्